इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी सबलं प्रतिपादितवान् यत् तस्य प्रशासनं कृषकाणां कल्याणाय प्रतिबद्धं वर्तते। केन्द्रीय मन्त्रिमण्डलेन विहितं निर्णयम् उररीकृत्य श्रीमोदी अकथयत् यत् पञ्चविंशत्यधिक द्विसहस्रतमवर्षस्य प्रथमं मन्त्रिमण्डलं कृषकाणां समृद्धिं वर्धयितुं समर्पितम् अस्तीति। असौ न्यगादीत् यत् देशाय गौरववहो विषयो विद्यते यत् कृषका सामान्यजनानां उदरपूर्तये कठिनं परिश्रम करोतीति। ईरान देशस्य उपविदेशमन्त्री माजिद तख्त रवांची इत्यसौ अद्यारभ्य द्विदिवसीय यात्रार्थं भारतं प्रत्यागमिष्यति। यात्राकाले माजिद तख्त रवांची इत्येषः अद्य श्वश्च नवदिल्ल्याम् आयोक्ष्यमाणे ईरान भारत राजनीतिक परामर्शस्य नवदशतमे चरणे भागं ग्रहीष्यति। ध्येयं वर्तते यत् भारत ईरान देशयोः मध्ये ऐतिहासिक रूपेण सम्बन्धो विद्यते, यो हि सांस्कृतिकं आर्थिकं सम्बन्धं च प्रतिबिम्बयति। एतद्धि सहभागित्वं विशिष्टतया ऊर्जाव्यापारयोः क्षेत्रेषु पुष्पितं पल्लवितं च जातमस्ति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां भविष्यमाणे पुस्तक विमोचन समारोहे मुख्यातिथित्वेन कार्यक्रमस्य अध्यक्षपदम् अलंकरिष्यतीति। एतस्मिन् समारोहे केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधानोऽपि सम्माननीयः अतिथिः भविष्यति। अत्रावसरे प्रख्याताः प्रतिष्ठिताश्च लेखकाः, शिक्षाविदः, मन्त्रालयस्य अधिकारिणः, अन्ये च महानुभावाः उपस्थिताः भविष्यन्ति। ध्यातव्यमस्ति यत् जम्मू कश्मीर एण्ड लद्दाख थ्रू दि एजिस इत्यनेन शीर्षकेण संवलितं पुस्तकं जम्मू कश्मीर लद्दाख प्रदेशयोः कथां प्रस्तौति। पुस्तके तस्मिन् सप्तखण्डानि निहितानि सन्ति, यानि क्षेत्रस्य त्रिसहस्रवर्षाणाम् इति वृत्तम् आवृण्वन्ति। प्रशासनेन वन नेशन वन सब्सक्रिप्शन इति एकं राष्ट्रं एका सदस्यता इति योजनायाः शुभारम्भो विहितः। अस्याः योजनायाः उद्देश्यं शोधार्थिभ्यः सिंगल सब्सक्रिप्शन प्लेटफॉर्म इत्येतस्य एकल सदस्यता ग्रहणस्य अनन्तर्गतं शोधपत्राणि, पत्रिकाः, शैक्षणिक सामग्र्यः च समेत्य व्यापकस्य डिजिटल इति आन्तर्जालिक निहितानां ज्ञानस्य संसाधनानां निर्बाधोपलब्धता प्रदास्यते। अस्याः योजनायाः विविधस्थलेषु सदस्यता ग्रहणस्य आवश्यकता न भविष्यति, अथ च ज्ञानं सर्वेभ्यः सुलभं भविष्यति। विश्वविद्यालयानां भारतीय प्रौद्योगिकी संस्थानानां प्राशासनिक साहाय्य प्राप्तवताम् उच्च शिक्षा संस्थानानां च अशीति लक्षाधिकैक कोटि विद्यार्थिनः अनया योजनया जगतः। शीर्ष शोधपत्रिकासु प्रकाशितानि शोधपत्राणि द्रष्टुं सौविध्यं प्राप्स्यन्ति। अवधेयास्पदं वर्तते यत् केन्द्रीय मन्त्रिमण्डलेन गतवर्षे नवम्बर मासस्य पञ्चविंशे दिवसे वन नेशन वन सब्सक्रिप्शन इति एकं राष्ट्रं एका सदस्यता इति योजना स्वीकृता आसीत्। अस्याः योजनायाः प्रथमे सोपाने विविध विषय सम्बद्धानि चतुश्शतोत्तर त्रयोदश सहस्राणि अन्ताराष्ट्रिय पत्राणि च सम्मिलितानि सन्ति। केन्द्रीय मन्त्रिमण्डलेन प्रधानमन्त्री शस्यागोप योजनायाः अर्थात् फसल बीमा योजना अथ च पुनर्घटित ऋत्वाधारितायाः शस्यागोप योजनायाः च अनवरतं प्रवर्तनं निर्णीतम्। मन्त्रिमण्डलोपवेशनानन्तरं वार्ताहरान् सम्बोधयता सूचना प्रसारण मन्त्रिणा अश्विनी वैष्णवेन प्रोक्तं यत् एतदर्थं आवंटित राशिः सार्धनवषष्टि सहस्राधिक पञ्चदश कोटि रूप्यकाणि यावत् विहितः। हॉकीति प्रतिस्पर्धायां श्राची राड बंगाल टाइगर्स इत्यनेन दलेन टीम गोनासिका इत्येतद्दलं 2-1 इत्यंकान्तरालेन ह्यः पराजितम्। इति वार्ताः।